दाता पुरस्ताद्य मुदा जहार शक्रः प्रविद्वान् प्रतिशश्च तस्रः तमेवं विद्वानमृत इह भवति नान्यः पन्ता अजनाय विद्यते सहस्रशीर्षं देवं विश्वाक्षं विश्वशम्भुवम् विश्वं नारायणं देवमक्षरं परमं पदम् विश्वतः परमा नित्यं विश्वं नारायणगुं हरिम् विश्वमेवेदं पुरुषस्तद्विश्वमुपजीवति पतिं विश्वस्यात्मेश्वरगुं शाश्वतगुं शिवमच्युतम् नारायणं महाज्ञेयं विश्वात्मानं परायणम् नारायण परो ज्योतिरात्मा नारायणः परः नारायण परं ब्रह्मतत्त्वं नारायणः परः नारायण परो ध्याता ध्यानं नारायणः परः यच्च किञ्चिज्जगत् सर्वं दृश्यते श्रूयतेऽपि वा अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणस्थितः अनन्तमव्ययं कविगुं समुद्रेन्द्रं विश्वशम्भुवं पद्मकोशप्रतीकाशगुं हृदयं चाप्यथोमुखम् अधो निष्ट्यावितस्यां तेनाभ्यामुपरितिष्ठते ज्वालमालाकुलं भाति विश्वस्यायतनं महत् सन्ततगुं शिलाभिस्थूलं भत्याकोशसन्निभम् तस्यां ते सुशिरगुं सूक्ष्मं तस्मिन् सर्वं प्रतिष्ठितम् तस्य मध्ये महालग्निर्विश्वाचिर्विश्वतोमुखः शोक्रभुद्विभजं तिष्ठन्नाहारवचरकविः तिर्यगूर्ध्वमदश्यायी रश्मयस्तस्य सन्तता सन्तापयति स्वं देहमापाततलमस्तगः तस्य मध्ये वर्णिशिखा अणीर्योः द्वाप्यवस्थितः नीलतो यदमध्यस्ता विच्चुल्लेके वभास्वरा नीवारशुकवत्तन्वी पीता वास्वत्यनुपमा तस्या शिखाया मध्ये परमात्मा व्यवस्थितः स ब्रह्म स शिवः स हरिः सेन्द्रः सोऽक्षरः परमस्वराट् ऋतगुं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमो नमः नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् ॐ शान्तिः शान्तिः शान्तिः